एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षश्च केपी शर्मा ओली कथमपि दैविध्यम् भ्रमम् च न धृत्वा निर्वाचनस्य पूर्वकार्ये संलग्नतायै अनुरुणद्धि। नेकपा दलस्य प्रथम प्रदेश समित्या ह्यो विराटनगरे आयोजितायां जनसभायां प्रधानमन्त्री ओली चरणद्वय उद्घुष्टम् निर्वाचनम् निर्धारित समय एव भविष्यति इति चर्चयन् अवोचत्। लोकतन्त्रवादिनी विकासवादिनी समृद्ध नेपाल निर्मात्रे च शक्ति निर्वाचनम् जेष्यति। प्रधानमन्त्रिणा ओलिना देश विकारकाः परप्रेरणया दल विभाजनाय इच्छुकाश्च जनतया पराजेष्यन्ते इति विश्वासो व्यक्तः। प्रधानमन्त्री ओली कतिचित् जनाः नेपाल कम्युनिष्ट पार्टी नेकपा दलं समापयितुं तल्लीनाः सन्ति इति आरोपयत्। प्रधानमन्त्री ओली आसन्न द्वितृतीयांशस्य सर्वकारः कार्यसम्पादनात् अवरोधितः, कार्यसम्पादनेऽपि प्रत्येकं विषय अवरोध सर्जनं च अपेक्षितम् इति हेतोः आत्मना नवीन जनादेशाय जनतायं गन्तुं निर्णीतम् इति अभासत। प्रधानमन्त्री ओली बलेन छलेन च प्रवञ्चनात् दलात् पृथक् भूतान् जनान् पुनर्दले आगन्तुम् अन्वरुणत। कार्यक्रमे गृहमन्त्री रामबहादुर थापा अस्थिरतां समाप्य राष्ट्रे राजनैतिक स्थायित्वस्य संस्थापनाय निर्वाचने गमनात् अपर विकल्पो नास्ति इति अवोचत। सभामुखा सुभाष चन्द्र नेवाङ अगदत् सर्वे जनाः निर्वाचने संलग्नाः सन्ति इति हेतोः निर्वाचनस्य विकल्पो नास्ति। कार्यक्रमे प्रथम प्रदेशस्य मुख्यमन्त्री शेरधन राय वर्तमानावस्थातो राष्ट्रम् अग्रे वर्धयितुं निर्वाचनस्य आवश्यकतायै बलम् अददात्। उप प्रधानमन्त्री ईश्वर पोखरेलः आगामिनी वैशाख मासे सम्पत्स्यमानाय निर्वाचनाय तत्परा भवितुं सर्वान् अनुरुणद्धि। काष्ठमण्डप महानगरपालिकायाः पञ्चमवडा क्षेत्रे निर्मितस्य भीमसेन थान मन्दिरस्य उद्घाटन कार्यक्रमे ह्य उप प्रधानमन्त्री पोखरेलः अवोचत् राजनैतिक स्थिरतायै मध्यावधि निर्वाचनम् विधेयम् अभूत्। असौ अगदत् निर्वाचनस्य पश्चात् राजनैतिक स्थायित्वम् विकास समृद्ध्योः स्वप्नश्च सफलायतः। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ कथयति राष्ट्रम् आर्थिक क्रान्त्यै अग्रे वर्धितम् वर्तते। काष्ठमण्डप वैद्युत व्यवसायी संघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री गुरूङ अवासत राष्ट्रे राजनैतिक परिवर्तनम् सम्भूतमस्तीत्यतः साम्प्रतम् देशस्य कार्यसूची आर्थिक विकासः समृद्धिश्च वर्तते। मन्त्री गुरूङ व्यवसाय दायित्ववाहिता गुणस्तरीयता च आवश्यक्यौ भवतः इति चर्चयन् व्यवसाय मैत्रीम् नीतिम् निर्मातुम् व्यवसायीभिः सह विमर्शनाय आत्मनः तत्परा स्थिति अभासत। राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्ष कमल थापा भासते साम्प्रतम् राष्ट्रे विद्यमानायः विकृतेः विसङ्गतेश्चन्त्याय नूतन जनादेशः उपयुक्त विकल्पो वर्तते। झापा जनपदस्य गौरीगंजस्थाने ह्य आयोजिताम् सभाम् सम्बोधयन् अध्यक्ष थापा अवदत् राजनीतौ वैदेशिक प्रभावः हस्तक्षेपः बलसर्जनम् च सर्वैः दलैः तिरस्कर्तव्यानि। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः निगदति जनतायाः विश्वासयुतं दलं निर्मातुं नेपाली कांग्रेस दलेन देशाय सुस्पष्टं दिग्दर्शनं विधातव्यम्। नेपाली कांग्रेस दलस्य सुनसरी शाखाया ह्य इनरुवास्थाने आयोजिते कार्यक्रमे वरिष्ठ नेता पौडेलः अवोचत् जनतायाः विश्वासस्य केन्द्रं निर्मातुं पदस्य लोभं त्यक्त्वा नेपाली कांग्रेस दलेन स्वीय सिद्धान्ते स्थेयम्। नेपाली कांग्रेस दलस्य क्रियाशील सदस्यतानुसन्धान समित्या क्रियाशील सदस्यतायाः वितरणस्य नवीकरणस्य च सम्बन्धे विद्यमानानां कार्याणां विषये ज्ञातुं सप्तसु एव प्रदेशेषु प्रतिनिधयः निश्चिताः सन्ति। समितेः संयोजकस्य रमेश लेखकस्य संयोजकत्वे ह्य उपविष्टेन उपवेशेन निर्धारितानां दिनांकानाम् अभ्यन्तरे सम्पूर्ण कार्याणि सम्पादयितुं क्रियाशील सदस्यतायाः वितरणस्य नवीकरणस्य च सम्बन्धे विहितानां कार्याणाम् आगामिनि उपवेशे संसूचनाय प्रतिनिधयः निश्चिताः सन्तीति समितेः सचिव केशव रिजालः अज्ञापयत्। समितेः अपर उपवेशः अस्यैव फाल्गुनस्य एकादश दिवसे पूर्वाह्नस्य एकादशवादने दलकेन्द्रीय कार्यालये वस्ता। नेपाले गतदिने कोरोना विषाणोः संक्रमणात् त्रिंशदधिक शतम् जना स्वस्था अभवन् अनेन सह ह्यस्तनावधि कोरोना संक्रमणात् प्राप्त स्वास्थ्य लाभानां जनानां संख्या लक्षद्वयम् उनसप्ततिः सहस्राणि पञ्चपञ्चाशदधिक सप्तशतम् च प्राप्ता वर्तते। ह्य आराष्टम् अष्टचत्वारिंशदधिक सहस्रद्वयस्य निदर्शनानां परीक्षणं विहितं सत् अष्टाशीत्यां जनेषु संक्रमणं पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्यस्तनावधि कोरोना विषाणो संक्रान्तानां जनानां संख्या लक्षद्वयं त्रिसप्ततिः सहस्राणि एकपञ्चाशदधिक शतत्रयं च प्राप्ता वर्तते। ह्यस्तनावधि आराष्टं विद्यमानानां सहस्रस्य पञ्चत्रिंशदधिक शतस्य च सक्रिय संक्रान्तानां जनानां मध्ये चतुःपञ्चाशतो जनानां सघन उपचार कक्षे दश जनानां च कृत्रिम श्वास प्रश्वासोपकरणेषु उपचारः विद्यमानोस्तीति स्वास्थ्य मन्त्रालयो ज्ञापयति। बालुकायाः राशिना पूरणात् पाल्पा जनपदे जनद्वयं मृतमस्ति। पूर्वखोला ग्रामपालिकायाः चतुर्थवडा क्षेत्रस्य छेवकुन स्थाने बालुकायाः उत्खननस्य क्रमे उपरितः निपतितया बालुकया पूरणात् ह्य स्थानीय त्रयोदश वर्षीया पवित्रा सारू सत्रिंशत् वर्षीया मायादेवी च मृते इति प्रहरिणा ज्ञापितमस्ति। झापा पर्सा जनपदयो ह्य दुरापन्नायं दुर्घटनायं जनद्वयं मृतं जनत्रयम् आहतञ्च सन्ति। झापा जनपदे मोटरसाइकल यानयोः परस्परं संघटितयो सतोः मेची नगरपालिकायाः त्रयोदशवडा क्षेत्रस्य अष्टात्रिंशद् वर्षीयः अनन्त आचार्यः मृत इति झापा जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। एवमेव पर्सा जनपदस्य वीरगंज महानगरपालिकायाः चतुर्विंशवडा क्षेत्रस्य पदम पथे वस्तुवाहक ट्रक यानेन मोटरसाइकल यानं प्रहरितं सत् सखुवा प्रसौनी ग्रामपालिकाया पञ्चाशत् वर्षीय छटु शाह घटनास्थले एव मृत इति प्रहरिणा ज्ञापितमस्ति।